एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ता प्रवाचक उपेन्द्र दाहाल सहकारी संस्थायाः वित्तवञ्चन प्रकरणे अभियुक्तस्य राष्ट्रिय स्वतन्त्र दलस्य सभापतेः पूर्व गृहमन्त्रिणः रवि लामिछाने इत्यस्य विरुद्धे सहकारी संस्थायाः वित्तवञ्चनेन सहैव संघटिता अपराध सम्पद शुद्धिकरण सम्बद्धे अपराधे कास्की जनपद न्यायालये ह्य आरोपपत्रं पञ्जीकारितमस्ति। पोखराया सूर्यदर्शन सहकारी संस्थायाः वित्तापचलनस्य आरोपे निगृह्य कास्की जनपद प्रहरी कार्यालयस्य निग्रहणे स्थापितस्य लामिछानेविधस्य विरुद्धे सम्पद शुद्धिकरणे सप्तविंशतेः कोटीनाम् ऊननवतेः लक्षाणाम् चतुश्चत्वारिंशः तः सहस्राणाम् च रूप्यकाणाम् सहकारी वित्तवञ्चन प्रकरणे तिसृणाम् कोटीनाम् सप्तत्रिंशतो लक्षाणाम् पञ्चषष्टेः सहस्राणाम् च रूप्यकाणाम् हानिवित्तस्य याचनया सह आरोपपत्रम् पञ्जीकारितमस्तीति कास्की जनपद सर्वकारीयाधिवक्तृ कार्यालयस्य जनपद सहायक न्यायाधिवक्ता शान्तिदेवी शर्मा अज्ञापयत्। वञ्चन प्रकरणे लामिछाने विदेन सहितानाम् रामबहादुर खनाल छविलाल जोशी लीला पछाई तेतेसाम च विरूद्धे सम्पद शुद्धिकरणे ह्य आरोपपत्रम् पञ्जीकारितमस्ति। प्रतिवादिनः खनालात् त्रिंशद् लक्षाधिक चतुर्दश कोटितोप्यधिकानाम् रूप्यकाणाम् जोशिनः चतुस्त्रिंशद् लक्षाधिक चतुस्सप्तति कोटितोप्यधिकानाम् पछाई इत्यस्मात् सप्तषष्टि लक्षाधिक चतुर्विंशतेः कोटितोप्यधिकानाम् रूप्यकाणाम् हानिवित्तस्य याचना विहिता स्थिति कास्की जनपद सर्वकारीयाधिवक्तृ कार्यालयस्य सहायक न्यायाधिवक्ता शर्मा अज्ञापयत्। एवमेव सहकारी वञ्चन प्रकरणे जोशिनः विरूद्धे षड्विंशति लक्षाधिक पञ्चकोटितोप्यधिकानाम् दीपेश पुनित्यस्मात् षड्विंशति लक्षाधिक पञ्चकोटितोप्यधिकानाम् च रूप्यकाणाम् हानिवित्तस्य याचना विहितास्ति। सहकारी वञ्चने संलग्नानाम् अन्येषाम् जनानाम् कृतेऽपि अपराधानुसारेण हानिवित्तस्य दण्डस्य च याचनया सहितम् आरोपपत्रम् पञ्जीकारितमस्तीति सर्वकारीयाधिवक्तृ कार्यालयेन ज्ञापितमस्ति। लामिछाने विधेयन सहितानाम् ऊनविंशते जनानाम् विरूद्धेऽपि ह्य एव संघटितापराधे आरोपपत्रम् पञ्जीकारितम् वर्तते। अत्रान्तरे राष्ट्रिय स्वतन्त्र दलस्य सभापतिम् संसदीय दलस्य नेतारम् च रवि लामिछाने विधम् सांसद पदात् निलम्बयितुम् कास्की जनपद प्रहरिणा पत्राचारम् विहितमस्ति। लामिछाने इत्यस्य विरुद्धे ह्य सम्पद शुद्धिकरण विषये अभियोग पत्रस्य पञ्जीकरणेन सहैव सांसद पदात् निलम्बयितुम् प्रहरिणा सभामुखाय पत्रम् प्रेषितमस्ति। न्यायालये अभियोग पत्रस्य पञ्जीकरणानन्तरम् प्रहरिणा तस्य सूचना संसद सचिवालयाय प्रेषणीया भवतीति व्यवस्थायाः अनुसारेण प्रहरिणा सभामुखाय पत्रम् प्रेषितमस्ति। प्रधानमन्त्री केपी शर्मा ओली त्रिभुवन विश्वविद्यालयस्य शैक्षिक तालिकाम् पालयितुम् विश्वविद्यालये पारदर्शिताम् संस्थापयितुम् च निर्दिशति। विश्वविद्यालयस्य कुलपतेश्च प्रधानमन्त्रिणः ओलिनः अग्रेसरतायाम् त्रिभुवन विश्वविद्यालयस्य समस्यानाम् सुधारस्य विषयेषु च विमृष्टुम् ह्य सिंहप्रासादे उपविष्टे उपवेशे प्रधानमन्त्री ओली योग्यताक्रमम् संस्थाप्य विश्वविद्यालयः सबलो भवतु सक्षम जनशक्तेः उत्पादनम् च भवेत् इति विचारम् व्यक्तवान् अस्ति। प्रधानमन्त्री ओली विश्वविद्यालयस्य विकास सुरक्षा प्रवर्धनानि गतिश्चैव संयुक्त चिन्तायाः विषयाः सन्तीत्यतः त्रिभुवन विश्वविद्यालयस्य मर्यादाम् गरिमणम् वैशिष्ट्यम् च रक्षितुम् सर्वान् अन्वरुणत। तदवसरे प्रधानमन्त्री ओली विश्वविद्यालयस्य चलाचल सम्पदः अन्वेषणाय समितेः प्रतिवेदनस्य अध्ययनाय क्रियान्वयनाय च कार्यदलम् निर्मातुम् प्रतिवेदनम् पर्याप्तम् नास्तीत्यतः अतिरिक्तम् अध्ययनम् विधातुम् च आवश्यकतास्तीति अवोचत। प्रधानमन्त्री केपी शर्मा ओली नेपाल संस्कृत विश्वविद्यालयस्य उपकुलपतिपदे प्राध्यापकम् डाक्टर धनेश्वर नेपालम् पोखरा विश्वविद्यालयस्य उपकुलपतिपदे प्राध्यापकम् डाक्टर वेदराज केसी त्यमुम् कृषि वन विज्ञान विश्वविद्यालयस्य उपकुलपतिपदे प्राध्यापकम् डाक्टर शारदा थपलिया विधाम च नियुक्तवान् अस्ति। त्रयाणामेव विश्वविद्यालयानाम् कुलपति नाच प्रधानमन्त्रिणा ओलिना ह्या रिक्तेषु उपकुलपति पदेषु नेपाल केसी थपलिया च नियुक्ता सन्तीति प्रधानमन्त्रिण सचिवालयेन ज्ञापितं वर्तते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति राजनीतिक्य अस्थिरतात देशम् उद्धृत्य आर्थिक विकासस्य गति प्रदानम् वर्तमान सर्वकारस्य प्रथम दायित्वम् वर्तते। अस्यैव पौषमासस्य पञ्चमे दिवसे उपविष्टस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्य संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार मन्त्री गुरूङ देशाय राजनीतिकीम् स्थिरताम् प्रदाय विकास निर्माण कर्मभ्य गति प्रदानार्थम् वर्तमान सर्वकार संघटितो स्थिति अगदत। संचार मन्त्री गुरूङ राजनीतिक स्थिरताया कृते वर्तमान गठबन्धनम् निर्मितम् अस्ति, त्यतः सत्ता गठबन्धने स्थितेषु दलेषु परस्परम् कापि समस्या न विद्यते, सत्ता गठबन्धने परिवर्तनस्य कापि सम्भावना च नास्तीति अगदत। अत्रान्तरे अस्यैव पौषमासस्य पञ्चमे दिवसे उपविष्टेन मन्त्रिपरिषद उपवेशेन पर्सा जनपदस्य पोखरिया चिकित्सा लयस्य पञ्चाशतशय्याया चिकित्सालय स्तरोन्नतिम् विधाय मधेस प्रदेश सर्वकाराय हस्तान्तरणार्थम् स्वीकृतिम् प्रदातुम् निर्णीतमस्ति। एवमेव उपवेशेन लघ्वीनाम् मध्यमानाम् च संघटित संस्थानाम् एतद् विक्रमवर्षीयाम् न्यासपत्र निष्कासन व्यवसाय नियमावल्याः वर्षीयाया नियमावल्याः निर्माणाय न्यासपत्र संस्थायै स्वीकृतिम् प्रदातुम् नेपालोड्डयन सेवा प्राधिकरणस्य स्थापनाय व्यवस्थापनाय च निर्मितम् एतद् विक्रम वर्षीयम् विधेयकम् नेपाल नागरिकोड्डयन प्राधिकरण सम्बद्धम् विधिम् च संशोधयितुम् एकीकर्तुम् च निर्मितम् एतद् विक्रम वर्षीयम् विधेयकम् च संघीय संसदि प्रस्तुत्यै स्वीकृतिम् प्रदातुम् न्यासपत्रापणस्य संचालनाय अनुमति पत्र प्रदानस्य विषयम् अध्येतुम् संघटितया समित्या प्रस्तुतं प्रतिवेदनम् अर्थ मन्त्रालये प्रेषयितुं च निर्णीतम् अस्ति सर्वकारस्य प्रवक्ता च संचार सूचना प्रविधि मन्त्री गुरूङ अज्ञापयत। सभामुखा देवराज घिमिरे निगदति संसदीय समितिनाम् विधेयक समितौ गणपूरक संख्याया अभावात् उपवेशाभावे उपवेशे अनुपस्थितेभ्य सदस्येभ्य स्पष्टीकरणस्य याचनस्य वातावरण निर्माणस्य आवश्यकता वर्तते। प्रतिनिधिसभायाः कार्यव्यवस्था महाशाखया काभ्रे पलाञ्चोक जनपदे आयोजिते संसदीय पदाधिकारिणाम् समीक्षात्मक कार्यक्रमस्य समापनावसरे ह्यः सभामुखा घिमिरे एवम् अगदत् इति समाचाराः।